एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः मन्त्रिपरिषदः उपवेशेन त्रयोविंशतेः स्थानीय प्रशासन कार्यालयानाम् वर्धनस्य प्रस्तावः प्रशासन समितौ प्रेषितो वर्तते। प्रशासन समित्या मन्त्रिपरिषदा प्रेषितस्य प्रस्तावस्य आवश्यक विमर्शनम् विधाय क्रियान्वयनस्य कृते प्रस्तावसौ अग्रे वर्धयिष्यते इति गृहमन्त्रालयेन ज्ञापितम् वर्तते। गृहमन्त्रालयस्य अन्तर्गतेन कार्यदलेन प्रस्तुते सांगठनिक व्यवस्थापन सर्वेक्षण प्रतिवेदने उल्लेखनस्य अनुसारेण सेवाग्राहिणाम् काठिन्यस्य निवारणस्य उद्देश्येन कार्यालयानाम् वर्धनस्य प्रस्तावः विहितोऽस्तीति गृहमन्त्रालयेन ज्ञापितम् वर्तते। गृहमन्त्री रमेश लेखकः आन्तरस्रोतसाम् व्यवस्थापनम् विधाय तराई क्षेत्रात् उच्च हिमालयीय क्षेत्रम् यावत् स्थानीय प्रशासन कार्यालयाः वर्धनीयाः इत्यत्र बलम् दत्तवान्। प्रतिनिधिसभायाः अन्तर्गतायाः राज्यव्यवस्था सुशासन समितेः रिक्तसभापतिपदे नेपाली कांग्रेस दलस्य सांसदस्य ईश्वरी देवी न्यूपाने विधायाः एकल प्रत्याशिता पञ्जीकारिता अस्ति। न्यूपाने विधायाः प्रस्तावके नेपाली कांग्रेस दलस्य सांसद रामहरि खतिवडा, समर्थके च नेकपा एमाले दलस्य सांसद कृष्णगोपाल श्रेष्ठश्च वर्तेते। समितेः अद्य उपविश्यमाने उपवेशे एकस्यैव प्रत्याशिनः प्रत्याशितायाः प्रस्तुतेः ज्ञापनानन्तरम् निर्विरोधम् निर्वाचितास्तीति ज्ञापयिष्यते। संसदीय श्रवण समितेः सभापति पदस्य दायित्वम् निर्वहन्त्या नेत्र्या न्यूपाने विधया ह्य एव सभामुखस्य देवराज घिमिरे विधस्य समक्षम् पदात् त्यागपत्रम् प्रदत्तम् आसीत्। तत्पूर्वम् ह्य उपविष्टेन नेपाली कांग्रेस दलस्य पदाधिकारिणाम् उपवेशेन सांसदम् न्यूपाने विधाम् सभापतेः प्रत्याशिनम् विधातुम् निर्णीतम् आसीत्। कांग्रेस दलस्यैव सांसदेन रामहरि खतिवडा विधेन राज्यव्यवस्था सुशासन समितेः सभापति पदात् त्यागपत्रस्य प्रदानानन्तरम् पदमिदम् रिक्तम् आसीत्। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्रिणा बलराम अधिकारिणा धनुषा जनपदस्य विदेह नगरपालिकायाः सहस्राय एकशताय च जनेभ्य भूस्वामित्व प्रमाणपत्रम् वितीर्णम् वर्तते। भूमापन कार्यालयस्य धनुषा जनपद शाखया ह्य इटहरवा स्थाने आयोजिते कार्यक्रमे पालिकायाः प्रथमवडा क्षेत्रस्य नवमवडा क्षेत्रात् नवमवडा पार्यन्तिकेभ्य एकादश शतजनेभ्य मन्त्री अधिकारी भूस्वामित्व प्रमाणपत्राणि व्यतरत। कार्यक्रमे मन्त्री अधिकारी भूमि समस्यायाः समाधानाय स्तरत्रयस्यैव सर्वकाराणाम् सहयोगस्य समन्वयस्य च आवश्यकता स्थिति प्रत्यपादयत्। कार्यक्रमे मन्त्री अधिकारी आगामिनः वर्षत्रयस्य अभ्यन्तरे भूमिहीनानाम् अव्यवस्थितावासानाम् च जनानाम् भूमि समस्यायाः समाधानम् भविष्यति इति समाश्वासयत्। नेकपा एमाले दलेन अस्यैव भाद्रमासस्य त्रयोदश दिवसाय आहूतः दशमः केन्द्रीय समितेः उपवेशः स्थगितीकृतो वर्तते। ललितपुरस्य च्यासलवर्तिनी दलकेन्द्रीय कार्यालये द्वितीय विधानमाधिवेशनस्य पूर्वकार्याणाम् कृते अस्यैव भाद्रमासस्य त्रयोदशे दिवसे प्रातः एकादशवादनाय आहूतः उपवेशः स्थगितीकृतोऽस्तीति एमाले दलस्य केन्द्रीय प्रचार विभाग प्रमुख राजेन्द्र गौतमः अज्ञापयत्। विधान संशोधनम् आश्रित्य परामर्शनानाम् प्राप्तेः क्रमस्य सञ्चलनात् पूर्वकार्याणाम् अपूरणाच्च उपवेशः स्थगितीकृतोऽस्तीति प्रचार विभाग प्रमुख गौतमः समस्पष्टयत्। एमाले दलस्य द्वितीय महाधिवेशनम् ललितपुरस्य गोदावरी वर्तिनी सनराइज भवने अस्यैव भाद्रस्य विंशात् दिवसात् द्वाविंशम् दिवसम् यावद् आयोजयितुम् निर्णीतम् वर्तते। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः आविश्वम् प्रस्थितान् नेपालिनः नेपालमागत्य निवेशनम् कर्तुम् आह्वयति। एसोसिएशन अफ नेपाली ओरिजिनियन नाम्न्यः संस्थायाः नेपाल विभागस्य प्रथमम् अधिवेशनम् पूर्वेद्योः काष्ठमण्डपे उद्घाटयन् उपप्रधानार्थमन्त्री पौडेलः सर्वकारेण निवेशनस्य वातावरणं सृष्टमस्ति, निवेशनाय आवश्यक सहजीकरणस्य कृते सर्वकार तत्परश्च वर्तते इत्यतः स्वदेशे एव निवेशनं कर्तुम् अन्वरुणत। तदवसरे उपप्रधानार्थमन्त्री पौडेलः सांस्कृतिक राष्ट्रियतां संयोजयितुमपि अस्याः संस्थायाः भूमिका महत्वपूर्णास्ति, इत्यतः एवंविध कार्यक्रमाणाम् आदान प्रदानम् आवश्यकमस्ति इति बलं दत्तवान्। पर्सा जनपदस्य वीरगंज महानगरपालिकया विसूचिकायाः संक्रमणं विचार्य विद्यालयेषु अतिरिक्तं दिवसत्रयम् अवकाशं प्रदातुं निर्णीतं वर्तते। ह्य उपविष्टेन नगरस्तरीयेण प्रशासनस्य उपवेशेन अद्यतः त्रयोदश दिवसं यावद् विद्यालयेषु अवकाशं प्रदातुं निर्णीतमस्ति इति महानगरस्य शैक्षिक प्रशासन महाशाखाया प्रमुख आनन्दलामी छाने असूचयत्। अत्रान्तरे वीरगंजनगरे विसूचिकायाः अतिसारस्य च संक्रमणं क्रमशः नियन्त्रणे आगच्छदस्ति। वीरगंज महानगरपालिकायाः स्वास्थ्य शाखायाः अनुसारेण विभिन्न चिकित्सालयेषु उपचाररतेषु चतुष्षष्ट्यधिक शतत्रय जनेषु आसन शतद्वयं रुग्णाः गृहं प्रति निर्गताः वर्तन्ते। वीरगंज महानगरपालिकायाः स्वास्थ्य शाखायाः जनस्वास्थ्याधिकृतस्य सुमन चन्द्र ठाकुरस्य अनुसारेण अधुनावधि वीरगंजनगरे 93 जनेषु विसूचिकायाः संक्रमणं पुष्टीभूतं वर्तते। यातायात क्षेत्रे क्रियाशीलैः श्रमिक संघटनैः पूर्ण पूर्व कार्याणि कृत्वैव इम्बोस्ट नम्बर प्लेट नाम्निम् उत्कीर्ण संख्या सूचक पट्टिकां संयोजयितुम् अनिवार्य आदेश प्रदानाय अभियाचितं वर्तते। नेपाल यातायात श्रमिक संघेन, नेपाल यातायात स्वतन्त्र श्रमिक संघटनेन, अखिल नेपाल यातायात श्रमिक संघेन च ह्य संयुक्त विज्ञप्तिं प्रकाश्य पर्याप्त पूर्व कार्याणि विधाय एव सहजपूर्ण शुल्केन एवं संख्या पट्टिकायाः अनिवार्य संयोजनस्य वातावरणं स्रष्टुम् अभियाचितं वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन हमास विद्रोही समूहेन बन्दीकृतस्य विपिन जोशिनः उन्मोचनाय आवश्यकं प्रयासं चालयितुं जोर्डन देशस्य राजा अब्दुल्ला द्वितीयः अनुरुद्धो वर्तते। राष्ट्रपतिना पौडेलेन जोर्डन देशस्य राज्ञे ह्य पत्रं सम्प्रेष्य जोशिनः अवस्थां संसूचयितुं, सुरक्षितम् उन्मोचयितुं, स्वदेशं प्रत्यानयनाय यथासम्भवं सहयोगं विधातुं च अनुरुद्धं वर्तते। राष्ट्रपति पौडेलः जोशिनः मात्रा भगिन्या च शीतल निवासवर्तिनी राष्ट्रपति भवने मिलित्वा गत रविवासरे जोशिनः उन्मोचनाय प्रयासं चालयितुम् अनुरुद्धः आसीत्। सिन्धुपाल्चोक जनपदस्य भोटेकोशी ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य हिन्दीस्थाने ह्य बोलेरो जीपयानस्य दुर्घटनायां जनद्वयं विलुप्तं वर्तते। अरणीको राजमार्गस्य अन्तर्गते हिन्दी स्थाने ह्य तातोपानी स्थानात् 12 विशेष स्थानं प्रति आगच्छत् बोलेरो जीपयानं मार्गात् आसन्न 20 मीटरमितं मदः भोटे कौशिकी नद्यां निपतितम् इति प्रहरिणा ज्ञापितं वर्तते। विलुप्तयो जनयो अन्वेषण कार्यं सञ्चलदस्ति इति प्रहरिणा ज्ञापितमस्ति।